अथ पञ्चमः पाठः। एवं देव्योक्तो नृपतिरुरुं विषादं गतः। रामेण तु भूपतिर्विश्वासितः। यत् त्वया पूर्वमुक्तं तदद्य त्वया कर्तव्यं। नार्या सह वनं गमिष्यामीति। तदुक्त्वा राघवः सौमित्रिणा जानक्या च सहितः पूर्या निर्गतः। बहुभिर्जनैः तद्दृष्ट्वा रुदितम्।